वसो नाम वाजलकृष इयक्षन्धिजा वा यज्ञैर्वारोदस्योः अरवन्तो वाजैरजमन्तः सातौ वनम् वाजे शुश्रुणम् शुश्रुतोऽधः हव एषा वसुरो नक्षतद्याम् श्रवस्यता मनसा निंस दक्षाम् चक्षाडायत्र सुविताय देवाद्यौर्नवारेभिः कृणवन्तः स्वैः इगमे एषा बभृता नाङ्गे सर्वदा आदाजे कृपणन्तरत्नम् धियम् च यज्ञम् च साधन्तस्तेनोधान्द्वसव्या अवसामि आदत्त इन्द्राय वः पनन्ताभिज ओर्वङ्गमन्दन्दितृत्सान् सकृत्स्वा अय्ये पुरपत्राम् महीम् सहस्रधाराम् बृहदेन्दुदक्षन् शचे एव इन्द्रपपसे कृणध्वमनानदन्दमयन्दम् प्रदन्योन् ऋभक्षणम् भगवानम् सुभृत्यम् भर्ताजो वज्रन्नर्यम् पुरक्षः यद्वापादपुरसमम् पुराषाढावृत्रहेन्द्रो नामान्यप्राह असेदिप्रासहस्पतिस्तु विष्मान्यदे पुष्मसि कर्तवे करत्तत